सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् न्यायशास्त्रवर्गे. गुरुब्रह्मा, गुरुविष्णु, गुरुदेवो महेश्वरः, गुरुसाक्षात् परब्रह्म, तस्मै श्रीगुरवे नमः. तत्र अस्माकं विषयः अस्ति न्यायशास्त्रः. न्यायशास्त्रस्य विषये परिचयत्वेन किञ्चित् वक्तुम् इच्छामि. तत्र न्यायशास्त्रमिति विषयः, अपि पुस्तकमस्ति तत्र विद्याधरी इति. एतत् पुस्तकम् अन्नम्भट्टैः रचितं तर्कसङ्ग्रहः इति मूलग्रन्थस्य व्याख्या अस्ति. एतत् पुस्तकं विद्याधरी. अस्मात् पुस्तकात् सरलरीत्या न्यायशास्त्रस्य ज्ञानं प्राप्यते इति कृत्वा एतत् पुस्तकं चितमस्ति अस्मिन् वर्गे अध्ययनार्थम्. तत्र न्यायः नाम लाजिक् अथवा रीजनिङ्ग्. नीयते, विवक्षितः अर्थः येन इति न्यायः नाम दट् बै विच् द डिसैर्ड् मीनिङ्ग् इस् ब्राट् औट् क्लियर्लि. तत्र यदा नूतन विषयस्य नूतन विषयस्य तत्र अध्ययनं कर्तुम् इच्छामः, तत्र अनुबन्धचतुष्टयम् इति भवति. नाम विषयः कः, विषयस्य प्रयोजनं किम्, कः अधिकारी भवति एतत् विषयं ज्ञातुम्, अपि एतस्य विषयस्य अन्येषां विषयाणां सम्बन्धः तत्र अन्ये तत्र कः सम्बन्धः इति तत्र अनुबन्धचतुष्टयम् इति वदामः. तत्र विषयः कः, प्रयोजनं किं, कः अधिकारी. तत्र नाम एतद् विषयं ज्ञातुं तत्र अर्हता कस्य अस्ति इति, अपि तदनन्तरं सम्बन्धः इति. अतः तत्र प्रथमतया तत्र तत्र न्यायशास्त्रम् इति विषये तत्र एतत् वाक्यमस्ति, काणाधं पाणिनीयं च सर्वशास्त्रोपकारकम् इति. इदं वचनं प्रायशः तत्र सर्वे श्रुतवन्तः अथवा जानन्ति. सर्वे ये संस्कृतभाषां जानन्ति, तत्र भारतदेशे गुरुकुलेषु न्यायशास्त्रस्य, व्याकरणस्य च अध्ययनं सर्वे छात्राः आरम्भे एव कुर्वन्ति. तत्र स्थूलं, जगदिदं, नामरूपात्मकं किञ्चित् आलोचने स्पष्टं भवति. नाम जगत् पदात्मकम्, अर्थात्मकं. नाम वस्तु, वस्तूनि सन्ति, शब्दाः सन्ति, शब्दात्मकम् अस्ति, अर्थात्मकम् अस्ति एतत् जगदिदम् इति जानीमः. पदज्ञानाय व्याकरणमस्ति, अर्थज्ञानाय नाम वस्तूनां ज्ञानाय न्याय अथवा वैशेषिकशास्त्रम् अस्ति. अस्माकं सनातनसम्प्रदाये षड् आस्तिकदर्शनानि सन्ति. तस्मिन् तत्र योगशास्त्रं, मीमांसाशास्त्रं, साङ्ख्याशास्त्रं, वैशेषिकशास्त्रम्, अपि वेदान्तशास्त्रम्, अपि न्यायशास्त्रम्. अतः न्यायशास्त्रम् आस्तिकदर्शनशास्त्रेषु अन्यतमं शास्त्रम् अस्ति. आस्तिकदर्शन नाम यस्मिन् वेदानां प्रामाण्यं मन्यते. तेषां सर्वेषां षड् दर्शनानां लक्ष्यं तु आत्मज्ञानम् एव. यद्यपि मार्गाः भिन्नाः, लक्ष्यम् एकमेव, आत्मनः ज्ञानं नाम आत्मज्ञानम्. दर्शन इत्युक्ते किं? दर्शन तु धृष् धातोः ल्युडन्तरूपम्. अत्र दर्शनं नाम यत् चक्षुषा पश्यामः तद् नास्ति, किन्तु आत्मानुशासनं नाम आत्मसाक्षात्कारम् इति एव. न्यायशास्त्रे आत्मा इति पदार्थः इति मन्यन्ते. लोके के के पदार्थाः सन्ति इति तर्कस्य माध्यमेन तेषां विश्लेषणं कृत्वा तेषाम् अवगमनेन अन्ततो गत्वा आत्मा नाम पदार्थः कः इति ज्ञातुं प्रवर्तन्ते नैयायिकाः. अन्यत्र अन्नम्भट्टैः लिखितं यत् पदार्थज्ञानस्य परमप्रयोजनं मोक्षः. तर्कस्य साधनार्थं किञ्चित् ज्ञानम् आवश्यकम्. ज्ञानम् अस्माभिः कथं प्राप्यते? न्यायशास्त्रे प्रमाणः चतुर्विधः, प्रत्यक्षम्, अनुमानम्, उपमानं, शाब्दबोधः च. तेषां चर्चा अग्रे गत्वा पुस्तके भवति. तर्कसङ्ग्रहः इति पुस्तकस्य उपरि तत्र विद्याधरी इति पुस्तकं, तदेव वयम् अस्मिन् वर्गे पठामः. तर्कसङ्ग्रहः न्यायप्रकरणग्रन्थः अस्ति, अपि वैशेषिकप्रकरणग्रन्थः अपि अस्ति. तर्क नाम किम्? प्रमाणानाम् अनुग्राहकः तर्कः. तर्कः न्यायशास्त्रस्य पर्यायशब्दः अस्ति. सङ्ग्रह इति पदस्य सामान्य अर्थः अस्ति सम्यक् रूपेण ग्रहणं भवति येन सः सङ्ग्रहः. किन्तु अत्र अन्य अर्थः अभिप्रेतः अस्ति, संक्षेपेण स्वरूपकथनम् इति अस्ति. सङ्ग्रहः नाम संक्षेपेण स्वरूपकथनम् इति. तत्र न्यायशास्त्रस्य संक्षेपेण स्वरूपकथनं भवति. अतः एतत्र विद्याधरी पुस्तकं तस्मिन् संक्षेपरूपेण नास्ति, किञ्चित् विश्लेषणं कृतम् अस्ति. अस्तु, इदानीं तत्र सर्वे तत्र विद्याधरी इति पुस्तके तत्र द्वितीयपुटे गच्छन्तु. तत्र अधोभागे, द्वितीयपुटस्य अधोभागे तत्र श्लोकमस्ति. तत्र निधाय हृदि विश्वेशं विदाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः. नाम तत्र मङ्गलश्लोकमस्ति. तत्र विश्वेशं तत्र देवं नमस्कृत्य गुरुं नमस्कृत्य तदनन्तरं तत्र अनुबन्धचतुष्टयम् इति, तत्र किमर्थम् एतत् ग्रन्थं कृतम् इति, तत्र ग्रन्थः कृतः इति वद इति लिखितमस्ति. तत्र बालानां सुखबोधाय, तत्र बालः नाम लघुबालकः इति नास्ति. तत्र बालः इति पारिभाषिकशब्दः अस्ति, नाम टेक्निकल्, पारिभाषिक नाम टेक्निकल् टर्म् अस्ति. तत्र बालः नाम ग्रहणधारणपटुः, यस्य यः गृहीतुं शक्नोति, नाम अवगन्तुं शक्नोति, विषयम् अवगन्तुं शक्नोति, तस्य ग्रहणशक्तिः अस्ति इति वदामः. अपि धारणपटुः नाम यः मनसि धर्तुं शक्नोति, विषयं धर्तुं शक्नोति, नाम स्मरति, सः धारणपटुः. नाम बालकः, बालः नाम यस्य ग्रहणशक्तिः अस्ति, अपि धारणशक्तिः अस्ति, सः एव बालः. केवलं लघुबालकः इति न, वयं तु लघुबालकाः न स्मः इति तत्र बालः, किन्तु वयं बालः, बालाः एव. अपि तत्र अन्यः तत्र बालस्य अन्य अर्थः अपि अस्ति. तत्र अतीतव्याकरणं कोश, अतीतव्याकरणकोशादिमान् अनतीततर्कशास्त्रः. नाम यस्य व्याकरणशिक्षा जाता किन्तु तर्कशास्त्रं तेन न पठितं, तादृशः य व्याकरणं पठितवान् अस्ति अपि न्यायशास्त्रे इदानीमेव प्रविष्टः अस्ति, तस्य कृते एतत् पुस्तकं लिखितमस्ति. वयं सर्वे तथा स्मः, इदानीम् एव न्यायशास्त्रे प्रविष्टाः स्मः वयं सर्वे. सुखबोधाय इति अस्ति. सुखबोधाय नाम सुखं बोधः इति, अथवा सुखेन वा बोधः, सुखबोधः इति समासः. सुख नाम अनायासः, अनायासेन बोधः भवति इति तत्र सुखबोधाय. अस्माकं तत्र विद्याधरी इति पुस्तकस्य स्व अनुभवस्य विषये किञ्चित् वदामि. अस्माकम् अनुभवः अस्ति तत्र विद्याधरी ग्रन्थस्य माध्यमेन सरलसंस्कृतेन न्यायशास्त्रस्य अवगमनं भवति. न्यायशास्त्रस्य अध्ययने को वा लाभः इति प्रश्नः भवति. प्रथमः तु तत्र आत्मज्ञानम् इति, एतत्तु पूर्वमेव अस्माभिः उक्तम्, तत्तु सर्वे दर्शनेषु अस्ति. अन्यत् किम् अस्ति अन्यत् किं प्रयोजनम् अस्ति इति प्रश्ने सति, अनुभवेन भाषा शुद्धिः भवति, वस्तूनां विश्लेषणं क्रियते सुन्दररीत्या न्यायशास्त्रे. संस्कृतभाषायाः शक्तिः या अस्ति, सा शक्तिः प्रकटीभवति न्यायशास्त्रे. तर्कस्य माध्यमेन सर्वं साधयन्ति नैयायिकाः इति कृत्वा न्यायशास्त्रस्य अध्ययनेन अस्माकं चिन्तनशुद्धिः अपि जायते इति कृत्वा न्यायाध्ययनेन महान् लाभः अस्ति. आदिशङ्कराचार्यः आदिशङ्कराचार्यस्य वचनम् अस्ति, श्रुत्यैव च सहायत्वेन तर्कस्यापि अभ्युपेतत्वात् इति. नाम तर्कस्य प्रयोजनशीलता का? श्रुतेः अवगमने सहायता करोति इत्येव तर्कस्य प्रयोजनशीलता. इदानीम् एतावता तत्र न्यायशास्त्रस्य विषये तर्कसङ्ग्रहः इति विषये अपि विद्याधरी इति पुस्तकस्य विषये किञ्चित् मया उक्तम्. इदानीम् अस्माकं वर्गस्य पाठनशैली इति विषये अपि किञ्चित् वक्तुमिच्छामि, यतो हि अस्माकं वर्गस्य पाठनशैली किञ्चित् भिन्ना अस्ति. सामान्यतया वर्गे किं भवति, शिक्षकः वा शिक्षिका वा पाठयति, छात्राः शृण्वन्ति, मध्ये मध्ये प्रश्नान् पृच्छन्ति, तावदेव. किन्तु आधिक्येन तत्र शिक्षकः वा शिक्षिका एव तत्र आधिक्येन वदति. किन्तु अस्मिन् वर्गे सर्वे छात्राः परिच्छेदं वा काञ्चित् पङ्क्तिं वा पठित्वा स्वशब्दैः प्रतिपादयन्ति. अतः तत्र यत्र यत्र किञ्चित् अधिकं वक्तव्यं भवति तत्र तत्र वयं पूरयामः इति अस्माकं वर्गस्य शैली अस्ति, किञ्चित् भिन्ना अस्ति. तत्र सर्वे छात्राः पठन्ति प्रतिवर्गे. तत्र इदानीं तत्र अनेके छात्राः सन्ति इति कृत्वा अस्मिन् वर्गे सर्वे न पठितुं शक्नुवन्ति, किन्तु अग्रे गत्वा तदेव भवति इति चिन्तनम्. पूर्वस्मिन् वर्गे तादृशी शैली एव आसीत्. अस्तु अस्तु, इदानीं तत्र आरभामहे. तत्र पुस्तकस्य अध्ययनात् प्राक् तत्र यदि प्रश्नाः सन्ति चेत् इदानीं तत्र अहं तत्र क्यू एण्ड् ए मोड् उद्घाटयामि. एकनिमेषः. अस्तु, इदानीं तत्र यस्य प्रश्नः अस्ति तत्र कृपया तत्र पृच्छन्तु. हा अस्तु, तत्र अपि आरम्भे तत्र अस्तु एकनिमिषः. हा अस्तु, इदानीं तत्र ओहो एकनिमिषः, तत्र कुत्र गच्छति. अस्तु, योगेन्द्रसोलाङ्की अत्र अस्तु. एतत् पश्यामः, तत्र अहमत्र क्यू न द्रष्टुं शक्नोमि. अस्तु एकनिमिषः. अस्तु, योगेन्द्रसोलाङ्की इति तत्र अस्तु. हा महोदय, तत्र नाम उक्त्वा तदनन्तरं प्रश्नं पृच्छतु महोदय.
महोदय, योगेन्द्र वदामि. मम प्रश्नः अस्ति, तर्कभाषा, तर्कसङ्ग्रह, न्यायशास्त्र, त्रिषु भेदः कः?
तर्कसङ्ग्रह पुस्तकस्य नाम अस्ति. हा, अपि अन्यप्रश्नः कः आसीत्?
तर्कभाषा, तर्कसङ्ग्रह, अपि च न्यायशास्त्र.
न्यायशास्त्रं शास्त्रस्य नाम अस्ति. न्यायशास्त्रस्य मूलग्रन्थः, तत्र गौतमन्यायसूत्राणि सन्ति. किन्तु अत्र प्रकरणग्रन्थः इति वदामः, तत्तु अन्नम्भट्टैः कृतं तर्कसङ्ग्रहः इति. तत्र तर्कसङ्ग्रहः, तर्क इति अत्र पर्यायपदमस्ति न्याय इति. अतः भेदः नास्ति, तर्कः न्यायः तयोः मध्ये अर्थभेदः नास्ति.
अस्तु, तर्कभाषा.
तर्कभाषा इति अन्यत् पुस्तकमस्ति महोदय, केशवमिश्रा इति लेखकः अस्ति. तत्तु गौतमसूत्राणाम् उपरि पुस्तकं लिखितमस्ति, तदपि महान् ग्रन्थः. किन्तु तद् अस्माकं स्तरीयपुस्तकं नास्ति.
अस्तु अस्तु, धन्यवादः महोदय.
धन्यवादः. अस्तु, अग्रे तत्र प्रतिमा भगिनी तत्र. हा नमस्कारः.
कौटिल्यस्य जीवनं ज्ञातुम् इच्छामि.
तद् मम अहं तु तस्मिन् विषये किमपि न जानामि भगिनी. हा तत्र अन्यत्र द्रष्टव्यमस्ति भगिनी, किन्तु हा क्षम्यताम्. हा अस्तु, अग्रे कः तत्र. अहम् एतावत् तत्र प्रश्नद्वयमेव दृष्टवान्, तत्र अहं न जानामि किमर्थं तत्र एतदेव अस्ति. एकनिमिषः. हा अस्तु, आदर्श. हा आदर्श महोदय इदानीं पृच्छतु महोदय.
नमस्ते महोदय.
नमस्ते
आदर्श. कति दिना प्रचलन्ति अयं कक्षा अप्राक्सिमेट्लि
कति दिन उत्तमप्रश्नः महोदय तत्र यतोहि तत्र न्यायशास्त्रस्य अध्ययनं तत्र षड् दर्शनानि सन्ति न्यायशास्त्रं तत्र एतत् न्यायशास्त्रस्य अध्ययने तत्र छात्राः तत्र गुरुकुलेषु तु तत्र प्रायशः एकवर्षं यावत् किन्तु प्रतिदिनं तस्मिन् विषये एव चिन्तनं कृत्वा तत्र अध्ययनं कुर्वन्ति वयं तु तत्र सप्ताहे केवलं किम् एकघण्टा वा अथवा सार्ध एकघण्टा वा एव तस्मिन् विषये चिन्तयामः खलु अतः तत्र प्रायशः महोदय तत्र प्रायशः तत्र किम् एकवर्षम् अथवा तस्य उपरि अपि भवितुम् अर्हति महोदय यतोहि तत्र गम्भीरविषयः अस्ति तत्र यदि शीघ्रतया गच्छामः तत्र अवगमनं न भवति यस्मिन् तत्र अहं मम अनुभवः अनुभवः कः इति वदामि अहं तु तत्र स्वरूपमहोदयेन पाठितवान् अस्मि तत्र स्वरूपमहोदय तत्र 2015 मध्ये प्रथमतया विद्याधरी पुस्तकस्य पाठः आरब्धवान् ततः आरभ्य अहं तत्र एतस्य पुस्तकस्य अध्ययनं कुर्वन् अस्मि इदानीमपि सः वर्गः प्रचलन् अस्ति महोदय
अस्तु महोदय धन्यवादः
हा अतः तत्र पुस्तकस्य इदानीं वयं 300 पुटे स्मः पुस्तके विद्याधरी पुस्तके 360 पेजस् सन्ति वयं पेज् 300-301 मध्ये स्मः किन्तु अन्यः नूतनवर्गः शुकवान् महोदयस्य वर्गः तत्र 2019 मध्ये तत् उद्घाटितमासीत् इदानीं तत्र वर्षत्रये ते तु तत्र 320 मध्ये सन्ति महोदय अतः छात्राणाम् इच्छानुसारं वेगः भवति
धन्यवादः
अस्तु नमस्कारः अस्तु अग्रे तत्र नीता भगिनी
नमस्कारः महोदय मम प्रश्नः अस्ति भवान् एकं श्लोकम् उक्तवान् पुस्तके मङ्गलश्लोकम् इति तत्र सुखेन इति पदस्य अर्थः अनायासेन इति भवान् उक्तवान् इत्युक्ते किं महोदय अहम्
अनायासेन तत्र विना कष्टं कष्टेन विना आयासम् आयासेन विना अनायासेन इति
अस्तु महोदय धन्यवादः
धन्यवादः नमस्कारः अस्तु अग्रे राजगोपाल् महोदय
हलो
नमस्कारः हलो
नमस्कारः निरञ्जन् महोदय ऐ एम् सारी ऐ एम् नाट् वेरि गुड् एट् स्पीकिङ्ग् संस्कृत ऐ हेपन् टु रीड् द फस्ट् 3-4 पेजस् आफ् दि टेक्स्ट् बुक् बट् ऐ डिड् फिगर् औट् देट् देर् वर् लाट् आफ् वर्ड्स् विच् ऐ वास् नाट् एबल् टु अण्डर्स्टाण्ड् एण्ड् ऐ वास् ट्रैङ्ग् टु find meanings of many of those words but I was struggling to get those meanings how do I proceed in such a situation
yadi aham sanskrute vadami tattu bhavan
no problem sir
no problem kalu astu astu atah bhavan angla bhashyam vadatu kintu aham sanskrute vadami tatra bhavatah kashtah kutra kashtam kutra asit nama tatra stool aksharaihi yad padam likitam tadeva va नाम तत्र द्रव्यं गुण कर्म सामान्यं विशेषः
सो सम् आफ् दोस् मीनिङ्ग्स् वर् नाट् क्लियर्
हा एतत् तत्र वयं ये तत्र नाम अस्ति तत्र पारिभाषिकशब्दः पारिभाषिकशब्दः नाम टेक्निकल् टर्म् इति तत्र इञ्जिनियरिङ्ग् खलु तत्र साधारणपदम् इति साधारणपदम् अस्ति किन्तु अर्थः भिन्नः भवति अत्र न्यायशास्त्रे द्रव्यमिति वयं चिन्तयामः किमपि पिबामः तदेव द्रव्यमिति किन्तु अत्र द्रव्यमिति तस्य अर्थः भिन्नः अस्ति पारिभाषिकशब्दाः इति वदामः प्रत्येकशब्दस्य तत्र द्रव्यं किं गुणः कः कर्म किम् इति तत् अग्रे गत्वा पश्यामः अतः तत्र इदानीं तत्र पदानाम् अवगमनं नास्ति चेत् चिन्ता मास्तु एतस्य एव एतेषां पदानाम् एव तत्र अग्रे चर्चा भवति महोदय
फैन् सर् थ्याङ्क् यू थ्याङ्क् यू
अस्तु अस्तु धन्यवादः नमस्कारः महोदय अस्तु अग्रे पुष्पा भगिनी
महोदय एकः प्रश्नः स्तः, परन्तु मया न एतद् न इदानीं न न उक्तम्
किं भगिनि, मया तत्र भवत्याः प्रश्नः न अवगतः.
इदानीं नास्ति, इदानीं नास्ति,
इदानीं नास्ति. ओ अस्तु अस्तु भगिनि, हा धन्यवादः भगिनि. अस्तु अस्तु, अग्रे राजी भगिनी एकनिमिषः. हा
श्रूयते वा जि?
हा श्रूयते, नमस्कारः भगिनि.
नमस्कारः. अस्मिन् विद्याधरी पुस्तके केवलं 56 पुटानि एव सन्ति. एतत् समाप्य वयम् अग्रिमभागं प्रति गच्छामः वा? कथं
भगिनि, यतोहि तत्र इदानीं हार्ड् कापि न लभ्यते इति कृत्वा तत्र PDF केवलं तत्र एतस्य भागस्य एव तत्र PDF तत्र स्थापितम् अस्ति. किन्तु पुस्तकं यतः लभ्यते तथा सर्वे छात्राः तत्र प्रेषयन्ति. तदनन्तरं तत्र किन्तु हा इदानीं PDF केवलं तत्र प्रथमभागस्य एव अस्ति भगिनि. किन्तु इच्छा अस्ति तत्र पुस्तकं सम्पूर्णतया पठामः इति. तत्र पुस्तकस्य तत्र 360 पेजस् सन्ति भगिनि.
तदेव अहं भवान् 360 इति उक्तवान्, 56 एव अस्ति इति एव मम
भगिनि. 360 पेजस् सन्ति भगिनि.
धन्यवादः.
नमस्कारः. अतु तत्र सोफी भगिनी तत्र हा एकनिमिषं भगिनी तत्र एतत् इदानीं तत्र अस्तु निमिषः तत्र हा अस्तु सोफी भगिनी इदानीं पृच्छतु. नमस्कारः.
I'm in Australia and I don't have any way of access for the book.
Ha, bhagini tadeva tatra ana bhagini api purvam uktavati. Aham yada tatra pustakam prapyate, aham sucheshyami bhagini tatra margaha kata kena bhavati tatra pustakam praptum shaknoti iti.
Dhanyavadam
bhagini. Astu namaskarah. Astu अन्य कोऽपि प्रश्नः अस्ति वा?
नमो नमः. विद्याधरी पुस्तके 56 पेज् एव अस्ति, अहम् इदानीमेव डौन्लोड् कृतवान्.
हा हा, तत्र केवलं प्रथमभागस्य एव तत्र PDF लभ्यते महोदय. सम्पूर्णपुस्तकस्य प्रायशः तत्र न लभ्यते इति मन्ये. हा किन्तु पुस्तके 360 पेजस् इति सन्ति.
अस्तु महोदय, धन्यवादः.
हा किन्तु तत्र स्वरूपमहोदय उक्तवान् तत्र तत्र व्यवस्था तत्र कर्तुं व्यवस्था तत्र कथं सर्वे छात्राः तत्र क्रेतुं शक्नुवन्ति इति तस्मिन् विषये तत्र इदानीं किञ्चित् कार्यं भवति, प्रचलन् अस्ति, प्रचलत् अस्ति. यदा तत्र व्यवस्था स्थापिता भवति अहं सूचयिष्यामि. अस्तु तर्हि तत्र हा सोफी भगिनी कृपया पृच्छतु. अहम् अन्म्यूट् कृतवान् किन्तु तत्र भवती एव तत्र अन्म्यूट् कर्तुं शक्नोति इति मन्ये, अथवा तत्र भवत्याः
प्रश्नः नास्ति महोदय.
ओ प्रश्नः नास्ति वा? अस्तु, भवतु तत्र रियाक्षन् मध्ये तत्र
रिविशन् फार् मी. ऐ हेव् वन्स् आलरेडि डन् इट्, सो इट्स् लैक् अ रिविशन् फार् मी. सो ऐ रियलि लैक् टु लर्न् फ्रोम् अ इण्डियन् रात् देन् अन् फारिनर्.
अस्तु भगिनि, अस्तु भगिनि, अस्तु,
धन्यवादः
महोदय. धन्यवादः भगिनि. अस्तु इदानीं सुवर्ण भगिनि,
वयं युनैटेड् स्टेट्स् मध्ये क्रीतवान्.
अस्तु भगिनि, भवती तु अत्र क्रीतवती वा? क्रीतम्. अस्तु भगिनि, अस्तु. सुवर्णा भगिनी प्रश्नः अस्ति वा?
प्रश्नः तु नास्ति, परन्तु अहमपि पुस्तकं क्रीतवती मम पार्श्वे.
कुत्र क्रीत?
अहं पुणे नगरे वसामि, तत्र एव एक वेदपाठशाला अस्ति, तत्र गत्वा अहं भगिनि.
तत्र तु तत्र देवदत्तपाटील तत्र समीपे एव अस्ति. समीचीनं भगिनि, समीचीनम्. अत्र तत्र अनेकानि पुस्तकानि तत्र सन्ति वा भगिनि, अथवा?
आम् आम्.
अस्तु भगिनि, अस्तु. अतः तत्र हा सन्तोषः, तत्र यदि पुणेनगरस्य समीपे वसन्ति चेत् हा सर्वे तत्र
महोदय अहं श्री तेण्डुल्कर् महोदयस्य सम्पर्कसूत्रमस्ति प्रेषयिष्यामि कोऽपि भारते अस्ति चेत् सम्पर्कं कृत्वा कोरियर्
ओ मार्गमेन क्रेतुं शक्नु अस्ति महोदय तत्र नमस्कारः रघुनन्दस्वामी अतः तत्र चाट् मध्ये तत्र स्थापयितुं महोदय तर्हि
अस्तु अस्तु अहं प्रेषयामि
हा धन्यवादः अस्तु अन्य अन्य कोऽपि प्रश्नः अस्ति वा
महोदय अहं पूर्णं पुस्तकम् आर्क्यू माध्यमेन डौन्लोड् कृतवान् अस्मि पूर्णं पुस्तकम् अस्ति
पूर्णपुस्तकं वा महोदय अस्तु तत्र लिङ्क् लिङ्क् कृपया तत्र चाट् मध्ये स्थापयतु महोदय तर्हि धन्यवादः धन्यवादः
यदा सुवर्णा भगिनी उक्तवती वयं पूनातः अपि हार्ड् कापि प्राप्तुं शक्यते
सत्यं सत्यं भगिनि समीचीनम् अस्ति
तस्य सम्पर्कसङ्ख्या मीन्स् सङ्ख्या अस्ति चेत् तस्य सम्पर्कं कुर्मः इति अस्ति चेत् वयं तादृशं पृच्छामः एतावद् क्वाण्टिटि अस्ति वा इति सर्वेषां निमित्तं वयं पृच्छामः
अस्तु भगिनि अस्तु कुर्मः तर्हि
वर्णा भगिनी कृपया चाट् मध्ये तस्य नाम सोरि सङ्ख्या अस्ति चेत् कृपया योजयतु भगिनि
भगिनी समानमेव यद् महोदय उक्तवान् तेण्डुल्कर् महोदय एव तत्र तेषामेव सम्पर्कं कृत्वा अहं प्राप्तवती
इदानीं तत्र सङ्ख्या स्थापिता अस्ति
तत्र
यदि भारतदेशे सन्ति चेत् तत्र सङ्ख्यां लिखन्तु तदनन्तरं तेन सह सम्भाषणं कुर्वन्तु पुस्तकं प्राप्तुं शक्नुवन्ति सर्वे अस्तु तर्हि इदानीं तत्र अग्रे सरामः तर्हि अतः तत्र अन्य यदि अन्यः प्रश्नः नास्ति चेत् तत्र यत् पुस्तके अस्ति तत्र तत् पठामः तर्हि अस्तु तत्र शर्वाणी भगिनी तत्र भवती आरम्भं कर्तुम् इच्छति वा भगिनी
हरि ओं महोदय मम पार्श्वे साफ्ट् कापि किञ्चित् क्लेशः भवति
अस्तु अस्तु भगिनि चिन्ता मास्तु चिन्ता मास्तु चिन्ता मास्तु अस्तु तत्र कः पठितुम् इच्छति तत्र सूचयतु तत्र
अहं पठामि
अस्तु आदर्श अपि तदनन्तरं शैलजा अस्तु अस्तु तर्हि तत्र आदर्श महोदय भवान् आरम्भं करोतु तदनन्तरं तत्र शैलजा भगिनी पठति अस्तु तत्र जगति अनेकानि वस्तूनि सन्ति इति आरभ्य प्रथमपुटे अधोभागे
जगति अनेकानि वस्तूनि सन्ति पर्वताः नद्यः गृहाणि मनुष्याः इतरे प्राणिनः वनानि नगराणि इत्यादीनि तेषां ज्ञानेन बुद्धिः विषदा विचारसमर्था भवति परन्तु ते अनन्ताः अनेकविधाश्च अतः सर्वेषां सर्वविधानां ज्ञानं दुःशक्यम् अतः
दुःशकम्
अतः किञ्चन वस्तु यत् बहुषु वर्तते तद् आदाय तेषां ज्ञापनाय पूर्वाचार्यैः यत्नः कृतः
तावत्पर्यन्तं महोदय तावत्पर्यन्तं इदानीं तत्र किञ्चित् विवृणोतु तत्र जगति एकमेकं वाक्यं स्वीकृत्य किञ्चित् स्वशब्दैः वदतु तत्र किम् अवगच्छति इति
वयं पश्यामः यत् जगति अनेकानि वस्तूनि अहं वयं पश्यामः ते विवृणोति ग्रन्थकारः यतः पर्वताः नद्यः इतरे प्राणिनः वा मनुष्याः प्राणिनां नाम जन्तवः मनुष्याः अन्यादीनि
समीचीनं
यदि सर्वेषां ज्ञानं अहं जाना ज्ञातुं प्रवृत्तः स्मः तर्हि बहु दुःशक्यम् इति कथयति किमर्थम् इति चेत्
विशद नाम तत्र सर्वं ज्ञातुम् अस्माकं शक्तिः नास्ति खलु, सर्वं स्थापयामश्चेत् तत्र किम्?
महोदय
ओवर्वेल्म् ओवर्वेल्म् इति तत्र बहु तत्र कठिनम् इति. हा तत्र एतत् तद् वयं तत्र शक्तिः अपि नास्ति, अपि यदि कर्तुं शक्नुमः तत्तु ओवर्वेल्मिङ्ग् भवति इति अतः विशदा.
जीवितपर्याप्तेन न सम्भवति.
तत्र परन्तु अत्र तत्र
तर्हि कोऽपि उपायः अस्ति वा
इति प्रश्नः उदेति. तत्र वस्तूनि अनन्तानि सन्ति, तत्र तत्र अनेकविधाः तत्र पदार्थाः भवन्ति. अनेकविधाः भवन्ति, अनन्ताः भवन्ति. तत्र अनन्ताः अस्ति, अनेकविधाः इति अपि अस्ति. तत्र तयोः मध्ये कः भेदः?
इन्फिनैट् अनेकविधाः नाम वेरियस् टैप्स्.
केवलम् एकम् एकं विधम् एव नास्ति, तत्र अनेके विधाः सन्ति. तत्र अतः तत्र अनन्ताः अपि सन्ति. केवलं पर्वतम् इति पश्यामश्चेत् तत्र अनन्ताः पर्वताः सन्ति, अथवा तत्र अपि तत्र नद्यः गृहाणि इति एकमेकम् अनन्ताः अनन्तानि गृहाणि सन्ति इति अपि वक्तुं शक्नुमः. अनन्तानि अतः तत्र अनन्ताः अपि अस्ति, अनेकविधाः अपि तत्र भवति. अस्तु, अतः
किन्तु वयं ज्ञातुम् इच्छामः उपायः कः इति अस्माभिः चिन्तनीया.
हा चिन्तनीयः, समीचीनं.
तर्हि पूर्वाचारैः किं कृतम् इति चेत् वस्तुषु वर्तमानः सामान्यगुणाः किञ्चित् अस्ति वा इति चिन्तनं कृतवन्तः.
हा तत्र इदानीं तत्र किं भवति, तत्र अनेकानि वस्तूनि सन्ति इति कृत्वा तत्र सर्वेषां ज्ञानं दुःशकम् इति कृत्वा तत्र श्रेणी स्थापिता अस्ति तत्र पूर्वाचार्यैः. श्रेणी नाम तत्र केटगरैजेशन् इति वदामः. तत्र श्रेणी, तत्र द्रव्यं, पृथ्वी, जलम् इति तत्र श्रेणी इति भवति. द्रव्यम् इति एकं, पृथ्वी इति अन्यत्, जलम् इति. अतः तत्र किञ्चित् किञ्चन वस्तु यत् बहुषु वर्तते तदादाय, तद् इत्युक्ते वस्तु आदाय तेषां ज्ञापनाय. तत्र तत् किम् अस्ति अस्मिन्, तत्र बहुषु एतद् वस्तु किं भवति इति तस्य अवगमनाय तत्र पूर्वाचार्यैः यत्नः कृतः. यथा इदानीं तत्र अग्रे तत्र शैलजभगिनी, धन्यवादः आदर्श महोदय, धन्यवादः. अस्तु, अग्रे शैलजभगिनी, अग्रे तत्र अधोभागे किम् अस्ति तत्र?
यथा गुणः, गन्धः, शैत्यम्, औष्ण्यं, स्पर्शः, शब्दः, संख्या द्विवारम् अस्ति
तत्र,
पुनः संख्या.
हा भगिनि, अत्र अस्ति किं तत्र अधोभागे यत् अस्ति,
द्रव्यं, पृथिवी, पृथ्व्याः गुणः गन्धः, जलं, जलस्य गुणः शैत्यं, तेजः, तेजस्य गुणः औष्ण्यं, वायुः, वायोः गुणः स्पर्शः, आकाशः, आकाशस्य गुणः शब्दः, कालः, कालस्य गुणः संख्या, दिशः गुणः संख्या, आत्मा, आत्मनः गुणः ज्ञानं, मनसः गुणः संख्या. पुनः अत्र इदानीं द्विविधम् अस्ति, गुणः इति एकविधम् अस्ति, अनन्तरं द्रव्यम् इति अनन्तरम् अस्ति. सर्वे सामान्य
द्रव्यम् इति अधोभागे अस्ति, द्रव्ये गुणः वर्तते इति वार्ता अत्र. द्रव्ये अधोभागे अस्ति, गुणः द्रव्ये वर्तते इति.
अत्र एकस्मिन् द्रव्ये एकः गुणः एव इति नास्ति,
चितः अस्ति, एकः गुणः चितः अस्ति. तत्र गन्धः इति पृथिव्याः लक्षणम् इति अग्रे पश्यामः, किन्तु तत्र एतद् लक्षणम् इति न वक्तुं शक्नुमः. तत्र लक्षणम् अस्ति किन्तु सर्वदा लक्षणं गुणम् इति नास्ति अत्र. अस्तु, अग्रे तत्र अग्रिमे पुटे अपि किञ्चित् पठतु भगिनि तर्हि.
एतानि नववस्तूनि गृह्णीमः.
तत्र नववस्तूनि कानि?
पृथिवी, जलं, तेजः, वायुः, आकाशः, कालः, दिक्, आत्मा, मनः इति नववस्तूनि.
नवद्रव्याणि.
तेषु सर्वत्र कश्चित् गुणः अवश्यं वर्तते. गुणः इति वस्तु पृथिव्यां जले, तेजसि इत्येवं सर्वेषु वस्तुषु वर्तते इति गुणः अनुगतं वस्तु अथवा पदार्थः. अतः तमादाय एते नवपदार्थाः द्रव्यमिति संज्ञां लभन्ते. तथा च कञ्चन विशेषमादाय सः विशेषः येषु वर्तते तेषाम् एकां संज्ञां कृत्वा आचार्यैः पदार्थबोधनाय यत्नः कृतः.
हा, इदानीं किञ्चित् तत्र एकमेकं वाक्यं स्वीकृत्य किञ्चित् वदतु. तत्र प्रायशः तत्र अथवा पदार्थः तावत्पर्यन्तं
उदाहरणार्थम् अत्र नव द्रव्याणि वस्तूनि चितानि सन्ति. तेषु सर्वत्र कश्चित् गुणः अपि चितः अस्ति. अवश्यं गुणः द्रव्ये वर्तते. गुणः इति वस्तु पृथिव्यां जले इति तेजसि तादृशम् अस्ति. सर्वेषु वस्तुषु गुणः अपि अस्ति. पदार्थः अस्ति. पदार्थस्य अतः तमादाय एते नवपदार्थाः द्रव्यम् इति संज्ञा लभते. अत्र तस्य विशेषनाम दत्तमस्ति द्रव्यम् इति. तदेव संज्ञा.
एकनिमिषं भगिनि, तत्र पदार्थः इति अग्रे तत्र पारिभाषिक शब्दः भवति. इदानीं तत्र पारिभाषिकरूपेण न स्वीकृतः अत्र, किन्तु अग्रे पदार्थः इति तत्र पारिभाषिक टेक्निकल् टर्म् इति अग्रे भवति. इदानीं तत्र पदार्थः नाम वस्तु इति चिन्तनम् इदानीं, किन्तु किञ्चित् अग्रे गत्वा पदार्थः इति तत्र पारिभाषिकरूपेण स्वीकुर्मः, पठामः.
अत्र पदं पदस्य अर्थम् इति नास्ति. पदार्थः इति वस्तु इत्येव.
वस्तु इत्येव. हा हा हा, पदार्थः नाम पदस्य अर्थः न, पदार्थः वस्तु इति. किन्तु अग्रे गत्वा पदार्थः तत्र न द्रव्यमिति एकं पदा एकः पदार्थः भवति, अन्यतमपदार्थः भवति. किन्तु पदार्थाः के इति अग्रे पश्यामः. इदानीं केवलम् अत्र वार्ता का इत्युक्ते, तत्र सर्वेषु वस्तुषु कोऽपि गुणः वर्तते एव.
गुणः अस्ति तत्र.
विशेषगुणः अपि अन्ये गुणाः अपि भवन्ति. अतः तत्र द्रव्यमिति तत्र यस्मिन् वस्तु तत्र यत्किमपि वस्तु भवतु तस्मिन् तत्र गुणः अस्ति चेत् तत्र द्रव्यम् इति तत्र संज्ञां लभन्ते. द्रव्यमिति संज्ञां लभन्ते इति इत्युक्ते संज्ञां नाम नामकरणं. तत्र द्रव्यं नाम किं? द्रव्यं यस्मिन् गुणः वर्तते.
तर्हि गुणम् आश्रित्य एव द्रव्यं वर्तते इति वक्तव्यं किल? यदि गुणः नास्ति तर्हि द्रव्यं न वर्तते.
अग्रे पश्यामः. तत्र सत्यमेव. तत्र कथं तैः तत्र भवत् तत्र तैः किं कृतमिति अग्रे पश्यामः. किन्तु इदानीं तत्र गुणः अस्ति. गुणः कुत्र वर्तते? द्रव्ये वर्तते इति. तत्र नामकरणं द्रव्यमिति नामकरणम् अस्ति इति. अस्तु, धन्यवादः भगिनि.
सो द्रव्यस्य अर्थः किम्?
हा हा, यस्मिन् गुणः अस्ति इति इदानीं
गुणः, बिकास् इन् मराठी द्रव्य इस् मनी न, सो ऐ मीन् ऐम् पिट् कन्फ्यूज्ड्.
हा न न न न, हा तत्र द्रव्यमिति इदानीं पारिभाषिकशब्दः अस्ति, टेक्निकल् टर्म् अस्ति. नवद्रव्याणि, तत्र द्रव्यं नाम पृथ्वी वा, जलं वा, तेजः वा, वायुः वा, आकाशः वा, कालः वा, दिक् वा, आत्मा वा, मनः इति तत्र द्रव्यम्.
So what is the exact word for in English?
एक्साक्ट्. एतत् वयं तस्मिन् विषये वयं न चर्चयामः भगिनि. तत्र द्रव्यं नाम सब्स्टेन्स् इति वक्तुं शक्नुमः.
सब्स्टेन्स्,
सब्स्टेन्स्, हा सब्स्टेन्स् इति वक्तुं शक्नुमः. किन्तु अस्मिन् वर्गे आङ्ग्लभाषस्य तत्र प्राधान्यं नास्ति भगिनि
तदपि
तदपि वदामि भगिनि अनघा भगिनि तस्मिन् विषये अपि वदामि यदि तत्र भवती इच्छति तत्र कृपया तत्र न्यायशास्त्रस्य अनेकानि पुस्तकानि आङ्ग्लभाषायां लिखितानि सन्ति कृपया एकं पुस्तकम् उद्घाट्य दशपुटानि भवती पठतु यदि शक्नोति चेत् अहं बहु प्रयत्नं कृतवान् आङ्ग्लभाषया एतस्य विषये तत्र वदन्ति किन्तु तत्र अवगमनं सुलभतया न भवति भगिनि
प्रोब्लम् वास् इन् मराठी द्रव्य इस् मनि सो जस्ट् टु मेक् इट् क्लियर्
किन्तु
पीडनार्थं क्षम्यतां द्रव्यम् इति पदस्य सरल अर्थः किम् इति कृपया वदतु महोदय
इदानीं महोदय केवलं द्रव्यं नाम नवद्रव्याणि सन्ति पृथ्वी जलं तेजः वायुः आकाशः कालः दिक् आत्मा मनः इति अग्रे द्रव्यम् इति किं गुणः इति कः एतस्य विवरणम् अग्रे भवति इदानीं तत्र यदि सुलभतया तत्र सर्वस्य विवरणं भवति चेत् तत्र किमपि नास्ति किन्तु तत्र प्रत्येकस्य शब्दस्य कः अर्थः लक्षणं किम् इति अग्रे ज्ञास्यामः
इदानीं
अद्य केवलं परिचयत्वेन किं किं भवति न्यायशास्त्रे इति तत्र अनेके पदार्थाः सन्ति इति लोके वयम् उक्तवन्तः तत्र द्रव्यम् इति यदि वदामः यत् किमपि वस्तु भवतु लोके एकस्मिन् द्रव्ये अन्तर्भूतः भवति अन्तर्भूतं भवति तद्वस्तु
विशेष्य भावः इत्यपि वक्तुं शक्यते वा महोदय गुणः इति
तत् किञ्चित् भिन्नः विषयः अस्ति भगिनि समीचीनप्रश्नः किञ्चित् भिन्नः अस्ति भगिनि तत्र पश्यामः अस्तु अग्रे तत्र कः अथवा का पठितुम् इच्छति अग्रे
अहं पठामि
अस्तु आन भगिनि अस्तु पठतु भगिनि
तत्र यः विशेषः गृहीतः सः बहुषु भवेत् एकस्मिन् वा भवेत् बहुषु भवति चेत् बहुनां सा संज्ञा यथा पृथ्वी द्रव्यम् इति उच्यते जलम् अपि द्रव्यं समवायत्वम् इति पदार्थः एकस्मिन् एव वर्तते अतः एकस्य एव समवाय इति संज्ञा भवति अतः च अनन्तानाम् अपि पदार्थानाम् अनेन उपायेन निरूपणं सुषकं भवति तत्र प्रायः बहुषु वस्तुषु गुणः भवति समानः गुणः बहुषु वस्तुषु भवति अथवा एकं स्पेसिफिक् गुण
द्रव्ये एव भवितुम् अर्हति
भवितुम् अर्हति प्रायः पृथ्वी गन्धम् अस्ति चेत् तस्य सः गुणः पृथ्व्याम् एव अस्ति गन्धः तस्य गुणः एव तस्याः गुणः एव परन्तु किं जले रासः अस्ति रासः अपि पृथ्व्याम् अस्ति जले अस्ति पृथ्व्यामस्ति
पश्यामः समीचीनं तत्र अतः तत्र एकस्मिन् एव स्थले अस्ति वा तत्र एषः गुणः अथवा बहुषु अस्ति वा तत्र जलम् इति केवलं नामकरणं किन्तु जलं तु तत्र बहुत्र लभ्यते खलु अतः तत्र एषः गुणः केवलम् एकस्मिन् स्थले अस्ति इति नास्ति किन्तु यत्र यत्र जलम् अस्ति तत्र तत्र एषः गुणः वर्तते खलु किन्तु इदानीं तत्र समवाय इति तस्य विषये
समवायत्वम् इति न जानामि एतत् पदम्
इदानीं मास्तु तत्र अग्रे पश्यामः केवलम् एकं पदम् इति स्वीकरोतु समवायः कः इति अग्रे पश्यामः किन्तु समय तस्मिन् विषये किं लिखितम् इति एव वदतु, तत्र समवायः कः इति इदानीं वर्तनास्ति,
पदार्थः एकस्मिन् एव वर्तते अतः एकस्य एव समवायः,
एषः केवलम् एकस्मिन् एव अस्ति अतः एकस्यैव समवायः इति संज्ञा नाम नामकरणं भवति.
समवाय इत्युक्ते संज्ञा यत् एकस्मिन् एव पदार्थे अस्ति तत् समवाय.
हा, यस्मिन् समवायत्वम् अस्ति सः समवायः, किन्तु एकः एव समवायः अस्ति, तत्र तस्य नामकरणम् अस्ति समवायः इति. समवायः कः इति अग्रे ज्ञास्यामः, इदानीं केवलं तत्र परिचयत्वेन बहुषु वर्तते अपि एकस्मिन् स्थले अपि वर्तते इति, एकस्मिन् स्थले वर्तते चेत् उदाहरणं वदतु इति पृच्छामः खलु, अतः समवायः इति उदाहरणं दत्तमस्ति. तत्र समवायः कः इति अग्रे तस्मिन् विषये चर्चा भवति.
अस्तु, तत्र समवाय एकस्मिन् पदार्थे अस्ति, सुशाकं बहुषु पदार्थेषु सन्ति,
न तादृशं नास्ति, तत्र अनेकानि वस्तूनि सन्ति, अनन्तानि वस्तूनि सन्ति, तत्र अनेन उपायेन नाम तत्र बहुषु वर्तते वा अथवा एकस्मिन् स्थले वर्तते वा इति स्वीकृत्य भेदः, तत्र बहुषु वर्तते अस्ति चेत् तस्यापि नामकरणं कुर्मः, केवलम् एकस्मिन् स्थले एव वर्तते चेत् तदपि तस्यापि नामकरणं कुर्मः. तत्र केटगरैजेशन् तस्य आधारः कः, यत् बहुषु वर्तते तस्यापि एकं संज्ञा भवतु, यत् केवलम् एकस्मिन् स्थले एव वर्तते तदपि विशेषः अस्ति खलु, अतः तस्यापि नामकरणम् आवश्यकम् इति वार्ता खलु. यत् बहुषु वर्तते तत् तस्य नामकरणस्य उपयोगः अस्ति, अपि यत् केवलम् एकस्मिन् स्थले एव वर्तते तदपि विशेषपदार्थः, अतः तस्यापि नामकरणम् आवश्यकम् इति कृत्वा एषः उपायः तत्र पूर्वैः आचार्यैः स्वीकृतः उपायः, तत्र एतेन उपायेन निरूपणं सुशकं भवति नाम सुलभं भवति, तत्र के पदार्थाः कानि वस्तूनि जगति सन्ति इति तेषां वर्णनं सुलभतया कर्तुं शक्नुमः इति. अस्तु, समीचीनं, धन्यवादः भगिनी. अस्तु, अग्रे कः पठितुम् इच्छति?
अहं पठामि वा?
अहं पठामि वा?
अस्तु, तत्र नाम उच्यतां तत्र.
मम नाम राजगोपाल.
अस्तु, राजगोपाल महोदय पठतु, तदनन्तरम् अन्या का उक्तवती, क्षम्यताम्.
अनघा.
अनघा भगिनी, अस्तु, तत्र प्रथमतया राजगोपाल महोदय पठतु, तदनन्तरम् अनघा भगिनी पठति. पुष्पा भगिनी, भवती अपि तत्र पठितुम् इष्टवती वा?
अग्रे पठामि.
अस्तु अस्तु भगिनी, अस्तु अस्तु, तर्हि तत्र राजगोपाल महोदय पठतु.
सङ्ग्रहादिग्रन्थेषु सप्तपदार्थाः. सङ्ग्रहादिग्रन्थेषु सप्तपदार्थाः इति यः विभागः दर्शितः सः इमां रीतिं बुद्धौ निधायैव कृतः.
नाम तत्र सङ्ग्रहादिग्रन्थेषु नाम सप्तसङ्ग्रह इत्यादिग्रन्थेषु प्रकरणग्रन्थेषु तत्र तर्कसङ्ग्रहः अस्ति, तस्य उपरि तत्र व्याख्या अस्ति, टीका अस्ति, अतः तत्र अनेके ग्रन्थाः सन्ति, तेषु सप्तपदार्थाः इति विभागः दर्शितः. तत्र सप्तपदार्थाः के इति अग्रिमे पुटे अस्ति, तद् एकवारं पठतु महोदय, अग्रिमे पुटे तत्र सप्तपदार्थाः, तत्र अधोभागे तत्र द्रव्यम् इति अस्ति, तत्र एकवारं पठतु महोदय कृपया.
वाचायन पाराग्राफ् इस् नाट् नीडेड् इस् इट्?
अग्रिमेपुटे उपरि अस्ति
गुणः इति पदार्थः.
न न अग्रिमे पुटे, नेक्स्ट् पेज्.
ओके ओके,
द्रव्यम् उपरि at the top.
Dravya guna karma samanya vishesha
samanya. Okay.
Vakya mastu tatra prutaktiya dattam asti tat patatu.
Dravyam gunah karma samanyam visheshah samavayah abhavah.
हा इति हा इति सप्तपदार्थाः
इमे सप्तपदार्थाः तत्र पदार्थो देशे नामानिर्देशे आदौ द्रव्यं निर्दिष्टम् कुतः यतः इतरे सर्वेऽपि द्रव्यम् आश्रित्य तिष्ठन्ति तत्र अस्ति विशेषः द्रव्ये गुणः तिष्ठति इति यदि उच्यते तर्हि द्रव्यम् अधः वर्तते गुणः द्रव्यस्य उपरि वर्तते इति ज्ञायते यथा यज्ञदत्तः आसने वर्तते
महोदय तत्र अस्तु भवान् अग्रे तत्र अस्तु अग्रे गतवान् इदानीं तद् मास्तु महोदय केवलं तत्र सप्तपदार्थाः के इति तत्र तावदेव तत्र इष्टमासीत् इदानीं
कर्म सामान्यं विशेषः समवायः अभावः
पूर्वं तत्र सङ्ग्रहादिग्रन्थेषु इति यत्र भवान् पूर्वम् आसीत् तत्र ततः पुनः पठतु सङ्ग्रहादिग्रन्थेषु इति यत्र पूर्वं पठितवान् भवान् द्वितीयपुटे मध्यभागे
सङ्ग्रह आदिग्रन्थेषु सप्तपदार्थाः इति यः विभागः दर्शितः सः इमां रीतिं बुद्धौ निधायैव कृतः
हा इदानीं तस्य विवरणं करोति वा तत्र
अहम् असमर्थः
अस्तु महोदय चिन्ता मास्तु अस्तु तर्हि तत्र अनघा भगिनी तत्र तदेव वाक्यं पुनः पठित्वा किञ्चित् विवृणोति वा
सप्तपदार्थाः
न सङ्ग्रहादिग्रन्थेषु सप्तपदार्थाः
सङ्ग्रहादिग्रन्थेषु सप्तपदार्थाः इति यः विभागः दर्शितः सः इमां रीतिं बुद्धौ निधायैव कृतः
अर्थः कः तस्य वाक्यस्य
अर्थः सप्तपदार्थाः विभागः दर्शितः
कुत्र
दर्शितः सङ्ग्रहादिग्रन्थेषु दर्शितः
हा नाम तर्कसङ्ग्रहः
तर्कसङ्ग्रहस्य
उपरि व्याख्या टीका इति अनेके ग्रन्थाः सन्ति तेषु ग्रन्थेषु सप्तपदार्थाः सन्ति इति
विभागः दर्शितः
कृतः अथवा दर्शितः ते के इति वयम् इदानीमेव दृष्टवन्तः तत्र सप्तपदार्थाः के द्रव्यं गुणः धर्म सामान्यं विशेष समवायः अभावः समीचीनं हा समीचीनं इति विभागः दर्शितः सः विभागः किमर्थं कृतः विभागः
सः विभागः सप्तपदार्थः अस्ति
हा किन्तु किमर्थम् एषः विभागः कृतः इत्युक्ते इमां रीतिं बुद्धौ निधाय एव कृतः नाम एषः उपायः यत् पूर्वः उक्तः अस्ति खलु तत्र यत्र यः बहुषु वर्तते अथवा एकस्मिन् एव भवति तमादाय तत्र विभागः कर्तुं शक्नुमः इति उक्तं खलु अतः तत्र तां रीतिं बुद्धौ निधाय नाम तां रीतिं मनसि निधाय एषः विभागः कृतः अस्ति पूर्वैः आचार्यैः
सो दिस् इस् फार् आर् अण्डर्स्टाण्डिङ्ग् बुद्धौ निधाय एव मीन्स् दिस् इस् फार् आर् अण्डर्स्टाण्डिङ्ग्
बुद्धौ निधाय इति बुद्धौ निधाय एव कृतः इति इत्युक्ते आचार्यैः कृतः एषः विभागः ते किमर्थं कृतवन्तः इत्युक्ते ते इमां रीतिं तेषां बुद्धौ निधाय एषः विभागः कृत एतं विभागं कृतवन्तः अस्माकं मनसि निधाय न ते कथं कृतवन्तः इति वार्ता ते
कीपिङ्ग् इन् मैण्ड्
उपायः एषः उपायः यः अस्ति तं मनसि निधाय एकं विभागं कृतवन्तः अस्तु समीचीनम् अस्तु अग्रिमवाक्यं
श्रेणी श्रेणी इति उक्तं न तथैव
हा हा सत्यं हा धन्यवादः पुष्पभगिनी अस्तु इदानीम् अनघभगिनी तत्र
वात्सायनभाष्य आदिग्रन्थेषु एवं वात्सायनभाष्य आदिग्रन्थेषु एवं वर्णयन्ति प्रथमतः उद्देशः ततः लक्षणं ततः परीक्षा इति उद्देशः नाम नामनिर्देशः द्रव्यम् इति कथनं गुणः इति कथनम् अत्र द्रव्यं कथं ज्ञातम् इति न निरूप्यते ज्ञातव्यम् इति न निरूप्यते केवलं संज्ञा उच्यते अतः अयम् उद्देशः केन वस्तुना द्रव्यं ज्ञातव्यं गुणेन यत्र गुणः तत् द्रव्यम् इति कथनं द्वितीयं तदेव लक्षणम् इति उच्यते
प्रथमवाक्यं स्वीकरोतु तत्र वात्स्यायन इति
वात्स्यायनभाष्य आदिग्रन्थेषु प्रथमः उद्देशः वदति ततः लक्षणं
भाष्यादिग्रन्थेषु एवं वर्णयन्ति तत्र फुट् नोट् अस्ति फुट् नोट् अपि पठतु तत्र किमस्ति तत्र चिह्नः अस्ति खलु सङ्ख्या अस्ति
महर्षिः गौतमप्रणीतन्यायसूत्राणां भाष्यकारः
तत्र
वात्स्यायन नाम महर्षिः अस्ति गौतमप्रणीतन्यायसूत्राणां भाष्यकारः
तत्र अन्नम्भट्टैः कृतः ग्रन्थः तर्कसङ्ग्रहः इति अस्ति किन्तु तत्र स्थापकः तत्र गौतममुनिः इति सः न्यायसूत्राणि लिखितवान् तस्य उपरि वात्स्यायनमहर्षि तत्र भाष्यं लिखितवान्
भाष्यं
कृतवान् अतः वात्स्यायनभाष्यादिग्रन्थेषु ग्रन्थेषु एवं वर्णयन्ति किं वर्णयन्ति तत्र रीतिं तत्र उपायः कः इति ते वर्णयन्ति अपि तत्र क्रमः तत्र के के पदार्थाः लोके सन्ति इति तत्र तेषां वर्णनं कथं कुर्मः इत्युक्ते तत्र विभागः भवति तत्र क्रमः अस्ति प्रथमतः किं कुर्मः उद्देशः द्वितीयभागः अस्ति लक्षणं तृतीयभागः अस्ति परीक्षा इति इदानीं तत्र उद्देशो नाम किं
नामनिर्देशः कुरुते
हा केवलम् उद्देशः नाम नामकरणम् एतस्य पदार्थस्य नाम एतद् भवतु इति तावदेव नामनिर्देश नाम एतस्य एतस्य पदार्थस्य नामकरणं द्रव्यम् इति कथनम् एतत् किम् अस्ति एतत् द्रव्यम् इति कथनम् अथवा एषः गुणः इति कथनम् अस्तु समीचीनं भगिनि इदानीं तत्र अग्रे धन्यवादः भगिनि अग्रे भवानी भगिनी तत्र पठि किञ्चित् विवृणोति वा भवानी भगिनी अस्तु तत्र अग्रे पुष्पा भगिनी किञ्चित् विवृणोति वा
आम् आं महोदय अत्र द्रव्यं कथं ज्ञातव्यम् इति न निरूप्यते
नाम किम्
अत्र द्रव्यं कथं ज्ञातव्यम् इति न निरूप्यते
हा द्रव्यम् इति एतद् एषः पदार्थः द्रव्यं वा इति प्रश्ने सति तस्य निर्णयः कथं कुर्मः इति इदानीं तत्र न उच्यते कस्मिन् भागे उद्देश इति भागे तत्र कथं ज्ञातव्यम् इति न वदन्ति तत्
केवलं संज्ञा उच्यते केवलं संज्ञा एव उच्यते
संज्ञा नाम
नामकरणमेव
समीचीनम् अतः
अयम् उद्देशः
उद्देशः नाम नामकरणम् एव
केन वस्तुना द्रव्यं ज्ञातव्यं गुणेन एव वस्तु किं वस्तु
प्रश्ने सति वस्तु तत्र द्रव्यं वा इति प्रश्ने सति तत्र तस्मिन् गुणः अस्ति वा इति न इति एव अग्रे भवति अतः गुणेन द्रव्यं वा न वा इति ज्ञातव्यं भवति अतः
यत्र गुणः तद् द्रव्यम् इति कथनम्
द्वितीयभागे तत्र यत्र गुणः अस्ति तद् द्रव्यम् इति कथनं भवति अग्रिम द्वितीयभागे
तदेव लक्षणम् इति उच्यते तदेव लक्षणं ततः लक्षणं ततः परीक्षा इति
समीचीनं प्रथमतया
पूर्वे तदेव एतद् विवरणं कृतं
हा समीचीनं भगिनि धन्यवादः हा अतः तत्र धन्यवादः भगिनि अतः तत्र प्रथमतया उद्देशः नामकरणं नेमिङ्ग् आफ् थिङ्ग्स् द्वितीयः अस्ति लक्षणं लक्षणं नाम डेफिनिशन् इति लक्षणं नाम डेफिनिशन् इति तत्र अग्रे लक्षणस्य अपि लक्षणं भवति डेफिनिशन् नाम किम् इति तस्मिन् विषये अपि तत्र किञ्चित् चिन्तनीयमस्ति अस्माभिः तदग्रे कुर्मः किन्तु तत्र प्रथमः अस्ति उद्देशः प्रथमभागः द्वितीयभागः अस्ति तत्र लक्षणम् अपि तृतीयभागः अस्ति परीक्षा अस्तु धन्यवादः भगिनि अग्रे अन्य कोऽपि पठितुम् इच्छति वा
आं महोदय अहं पठामि
भवानी भगिनि अस्तु नमस्कारः भगिनि हा पठतु भगिनि गुणः इति पदार्थः ततः आरभ्य
गुणः इति पदार्थः द्रव्ये वर्तते न वा अस्ति चेत् सर्वत्र वर्तते न वा इत्यादि विचारः परीक्षा
भगिनी तत्र परीक्षा परिच्छेदं पठित्वा तदनन्तरम् एकम् एकं वाक्यं स्वीकृत्य वदतु
गुणः इति पदार्थः द्रव्ये वर्तते न वा द्रव्ये
तत्र द्रव्ये
अस्ति वा न वा
द्रव्ये कोऽपि गुणः भवेत् किन्तु गुणः अस्मिन् द्रव्ये अस्ति न वा इति
यदि यदि भवति चेत् सर्वत्र वर्तते न वा विचारः एव परीक्षा
एकस्मिन् प्रदेशे भवति अथवा सर्वत्र भवति न वा इति तद् सा किं भवत् सा का भवति सा भवति परीक्षा
तया च परीक्षया विचारः परिपूर्णः भवति
हा नाम केवलम् उद्देशेन वा लक्षणेन वा अस्माकं विचारः तत्र जगति के के पदार्थाः सन्ति इति तस्मिन् विषये अस्माकं विचारः परिपूर्णः न भवति परीक्षायानन्तरम् एव तत्र विचारः परिपूर्णः भवति अतः परीक्षा अपि अपेक्षिता अस्ति किन्तु अग्रे तर्कसङ्ग्रहे
उद्देशभागः लक्षणभागः इति द्वयमेव वर्तते न तु परीक्षाभागः तर्कसङ्ग्रहे परीक्षाभागः नास्ति केवलम् उद्देशभागः लक्षणभागः एव इति द्वयमेव बालबोधनाय प्रवृत्तत्वात् इति श्लोकः
न बालबोधनाय प्रवृत्तत्वात् नाम किमर्थं तत्र परीक्षाभागः नास्ति इत्युक्ते परीक्षाभागः क्लिष्टः भवति एतत्तु बालबोधनाय नाम तत्र ये जनाः इदानीमेव न्यायशास्त्रे प्रविष्टाः सन्ति तेषां एतत् सर्वप्रथमतया सारल्यार्थम् उद्देशः कः लक्षणं किम् इति यदि ते जानन्ति तत् पर्याप्तं भवति तस्य यदि ते तत् जानन्ति तदनन्तरं परीक्षा इति विषये अन्यं ग्रन्थं ते पठितुं शक्नुवन्ति अस्मिन् ग्रन्थे तद् मास्तु इति चिन्तनम् आसीत् अतः बालबोधनाय एषः ग्रन्थः कृतः इति कृत्वा अस्मिन् ग्रन्थे परीक्षा नास्ति समीचीनं हा
निधाय हृदि विश्वेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः
हा तत्र तर्कसङ्ग्रहः किमर्थं कृतः बालानां सुखबोधाय एतद् एषः ग्रन्थः कृतः तत्र इति तत्र अन्नम्भट्टैः उक्तमस्ति प्रथमश्लोकः मङ्गलश्लोके एव एतद् उक्तम् समीचीनं भगिनि धन्यवादः
धन्यवादः
भगिनि अत्र अग्रे शैलजा भगिनी पठितुम् इच्छति वा
न महोदय अत्र एकः प्रश्नः अस्ति इदानीम् अवगमनं सम्यक् अस्ति वा इति प्रति अध्यायं पठित्वा किञ्चित् लघुपरीक्षा अस्ति चेत् एव अग्रे गन्तव्यम् इति नास्ति वा सम्पूर्णं ग्रन्थं पठित्वा अनन्तरमेव परीक्षा कुर्वन्ति वा
परीक्षा नाम तत्र यद् यथा परीक्षा इति तत्र किमपि कोऽपि विषयः अस्ति तत्र तत्र सेमेस्टरस्य अन्ते तत्र परीक्षा भवति इति तादृशं नास्ति भगिनि तत्र यदा 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 वयं किमपि ज्ञास्यामः तत्र गुणः कः अथवा कर्म किम् इति यदि अस्माकं ज्ञानं भवति वयमेव तस्मिन् विषये चिन्तनं यदि कुर्मः सा एव परीक्षा भवति नाम तत्र परीक्षा कथा कथं करणीया इति पुस्तके नास्ति किन्तु तस्मिन् विषये अस्माभिः चिन्तनं करणीयं तदेव परीक्षा भवति
न इदानीं गुणः अस्ति द्रव्यम् अस्ति अस्मिन् द्रव्ये एषः गुणः वर्तते वा न वा तादृशः तादृशं चिन्तनम् एव इदानीं परीक्षा इति उच्यते किन्तु तर्कसङ्ग्रहे तादृशपरीक्षार्थं न निर्मितम् अस्ति केवलम् उद्देशविचारः अनन्तरं कथनं लक्षणकथनम् एव अस्ति
सत्यं
परीक्षा भिन्नः अस्ति
नाम किं तत्र यदि भवती तत्र पुस्तकं पठित्वा गुणः कः इति जानाति तत्र गुणः कः इति तत्र अग्रे पश्यामः तत्र रूपः रूपम् इति एकः गुणः अस्ति रूपस्य लक्षणं भवती पठति तत् किम् इति तत्र एषः गुणः कः इति भवती पठित्वा मनसि स्थापयति तदनन्तरं भवती एव तत्र एषः गुणः कुत्र वर्तते इति भवती एव तस्मिन् विषये चिन्तनं करोति चेत् सा एव परीक्षा केवलं पुस्तके यदस्ति तद् भवती अङ्गीकरोतु इति वार्ता नास्ति तत्र पुस्तके यत् लिखितम् अस्ति तस्मिन् विषये वयमपि तत्र चिन्तनं यदि कुर्मः तदा एव महान् लाभः अस्माकं विचारः अपि भवेत् तत्र एतत् समीचीनम् उक्तं वा अस्मिन् लक्षणवाक्ये सर्वं अस्ति वा तत्र दोषः अस्ति वा न वा किमर्थम् एतादृशम् उक्तम् अस्ति इति अस्माभिः चिन्तनं करणीयमस्ति सा एव परीक्षा भवति भगिनि
स्वयमाचार्यमिति वदामः वा
किं महोदय
स्वयमाचार्यं
न तादृशं नाम तत्र परीक्षा इति तत्र वयमपि स्वयं परीक्षां कर्तुं शक्नुमः यद्यद् विषयं यं विषयं पठामः तस्य विषये तस्य चिन्तनं स्वयमपि वयं कर्तुं शक्नुमः अस्तु अन्य कोऽपि तत्र अग्रे पठितुम् इच्छति वा तत्र अहमेव तत्र नाम वदामि तर्हि
तत्र सूचयतु किमपि
तत् एव पश्यामि तत्र भगिनि सावित्री भगिनी पठतु अन्य का पुनः भगिनि
पद्मा
अस्मि अस्तु अतः तत्र सावित्री भगिनी पठतु तदनन्तरं पद्मा
यत्र श्लोकः पठितः तत्र तदादौ अन्नभट्टः ग्रन्थस्य निर्विघ्नपरिसमाप्तये मङ्गलाचरणं कृत्वा सप्तपदार्थान् नाम्ना निर्दिशति द्रव्येति अत्र आरम्भे इदानीं यः श्लोकः अत्र उक्तः अस्ति तत् मङ्गलाचरणरूपेण तत्र अन्नं भट्टमहोदयः तत्र कृतवान् अस्ति तद् अग्रे द्रव्यस्य विषये सप्तपदार्थान् नाम्ना तेषां निर्देशनं कुर्वन् अस्ति इति अत्र
किं किम् अस्ति इति वदति अपि मङ्गलाचरणं श्लोकं किमर्थं तत्र स्थापयन्ति चेत् निर्विघ्न परिसमाप्तये तत्र लेखनसमये तत्र आरम्भं तत्र ग्रन्थस्य आरम्भः कृतः तद् विना विघ्नं तत्र समाप्तिः तस्य समाप्तिः ग्रन्थस्य समाप्तिः भवतु इति प्रार्थनारूपेण तत्र मङ्गलाश्लोकं मङ्गलाचरणं कृतमस्ति अतः तत्र प्रथमं मङ्गलश्लोकं तदनन्तरं साक्षात् यः विषयः तत्र निरूपितुम् इच्छन्ति तस्य श्लोकं भवति इदानीं तत्र एकं वक्तव्यमस्ति अत्र तत्र स्थूलक्षरैः नाम बोल्ड् फेस् मध्ये यद्यत् पदम् अस्ति नाम तत्र अस्मिन् पुटे परीक्षा इति बोल्ड् फेस् मध्ये आसीत् खलु अपि सप्तपदार्थाः इति बोल्ड् फेस् मध्ये अस्ति अपि अग्रिमपुटे द्रव्यं गुणः कर्म सामान्यं विशेषः समवायः अभावः बोल्ड् फेस् मध्ये यदस्ति तत्र ते शब्दाः पारिभाषिकशब्दाः टेक्निकल् टर्म्स् इति वदामः तत्र द्रव्यमिति पारिभाषिकशब्दः गुणः कर्म सामान्यं सर्वम् अपि तस्य उपरि तत्र बोल्ड् अपि इटालिक् इति अस्ति खलु तत्र द्रव्यगुणकर्मसामान्यविशेषसमवायाभावः भावाः सप्तपदार्थाः इति तत्र यदस्ति बोल्ड् इटालिक् मध्ये तत् साक्षात् तर्कसङ्ग्रहे साक्षात् वाक्यम् अस्ति अतः तत्र बोल्ड् अस्ति चेत् टेक्निकल् टर्म् पारिभाषिकशब्दः बोल्ड् इटालिक् अस्ति चेत् मूलग्रन्थे तर्कसङ्ग्रहे एतद् वाक्यम् अस्ति एतत् एषः श्लोकः अस्ति इति ज्ञातव्यम् अस्माभिः अस्तु बोल्ड् पारिभाषिकशब्दः बोल्ड् इटालिक् अस्ति चेत् तत् साक्षात् तर्कसङ्ग्रहे मूलग्रन्थे एषः श्लोकः अस्ति इति अस्तु अग्रे भगिनी तत्र
मूलग्रन्थे विद्यमानम् अत्र साक्षात् अत्र अन्नभट्टमहोदयः स्वीकृतवान् इति तात्पर्यं स्यात्
हा 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 सत्यं
भगिनि तस्य विवरणं तैः कृतम्
अस्तु तत्कर्म इति तत् पठित्वा
आम् द्रव्यगुणकर्म सामान्यविशेषसमवायाभावाः सप्तपदार्थाः तस्य विवरणमस्ति द्रव्यं गुणः कर्म सामान्यं विशेषः समवायः अभावः इमे सप्तपदार्थाः एतावता यान् सप्तपदार्थाः इति वयं वदन्तः स्मः ते एते एव इति अत्र वदन्तः सन्ति तत्र पदार्थनिर्देशे नामनिर्देशे आदौ द्रव्यं निर्दिष्टं कुतः यतः इतरे सर्वे अपि द्रव्यम् आश्रित्य तिष्ठन्ति
अत्र तत्र सप्त तत्र सप्तपदार्थाः इति उक्तं सप्तपदार्थाः तत्र द्रव्यं गुणः कर्म सामान्यं विशेषः समवायः अभावः इति उक्तं किन्तु किमर्थं प्रथमतया द्रव्यम् इति अस्ति इति प्रश्नः द्रव्यमेव किमर्थम् आदौ अस्ति इति प्रश्नः अतः तत्र पदार्थ उद्देशे नामनिर्देशे आदौ द्रव्यं निर्दिष्टं द्रव्यमेव प्रथमतया स्थापितमस्ति खलु तत्र
किमर्थं तदा निर्दिष्टम् इत्युक्ते अन्ये सर्वेपि द्रव्यम् आश्रित्य एव तिष्ठन्ति इति अन्ये षट् पदार्थाः अपि द्रव्यम् आश्रित्य एव तिष्ठन्ति इति वाक्ये
हा समीचीनं तदेव अस्ति धन्यवादः अस्तु अग्रे तत्र का पठितुम् इष्टवती हा पद्मा भगिनी क्षम्यतां वदतु भगिनी अग्रे पठतु तर्हि
तत्र अस्ति विशेषः द्रव्ये गुणः तिष्ठति इति यदि उच्यते तर्हि द्रव्यम् अधः वर्तते गुणः द्रव्यस्य उपरि वर्तते इति ज्ञायते यथा यज्ञदत्तः आसने वर्तते इत्युक्तौ यज्ञदत्तः उपरि आसनम् अधः भवति इति ज्ञायते तत्र आसनं यज्ञदत्तस्य भारं वहति द्रव्ये गुणः अस्ति इति वयं दृष्टवन्तः तर्हि द्रव्यम् अधः अस्ति, गुणः तदुपरि अस्ति,
तस्य उपरि
तदा गुणाः द्रव्यम् आश्रित्य तिष्ठति इत्यर्थः. दृष्टान्तेन वदति, यज्ञततः इति एकः मनुष्यः आसने उपविशति इति वयं वदामः चेत्, यज्ञततः उपरि आसनस्य उपरि उपविशति, आसनम् अधः अस्ति, तस्य अधः अस्ति इति अस्माभिः ज्ञायते. तत्र आसनं यज्ञदत्तस्य भारं वहति इति अर्थः.
हा, समीचीनं भगिनि. अस्तु, अग्रिमपरिच्छेदमपि पठतु तत्र. आधार आधेय भाव्य
आधार आधेय भावव्यवस्थापनम्. अत्र इदं कल्पयामः, आसनं प्राणी इति. तर्हि तत् आसनम् इदं चिन्तयेत्, अहं यज्ञदत्तस्य भारं वहामि. इयं भारवहनस्य चिन्ता एव अधिकरणता, आधारता इति वा उच्यते.
पुनः एतस्य किञ्चित् विवृणतु.
अत्र आधार आधेय भावस्य व्यवस्थापनं करोति ग्रन्थकारः. अत्र वयम् एतादृशं कल्पयामः, आसनम् एक प्राणी इति वयं चिन्तयामः.
तर्हि अस्ति तत्र प्राणी इति पदस्य लिङ्गं किम् अत्र?
नपुंसकलिङ्गम्.
हा, किन्तु प्राणी साधारणतया प्राणिनः इति वदामः खलु, तत्र पुल्लिङ्गे अस्ति. अत्र किमर्थं प्राणी इति
नपुंसकलिङ्गम् इति नपुंसक
आसनमिति नपुंसकलिङ्गे अस्ति. यस्य यस्मिन् प्राणः अस्ति सः प्राणी इति. किन्तु तत्र आसनम् इति अपि तत्र आसने अपि प्राणः अस्ति इति चिन्तनम् अस्ति अत्र, यतोहि तस्य चिन्तनं भवति इति अग्रे वदामः. अतः तत्र आसनं नपुंसकलिङ्गे अस्ति इति कृत्वा प्राणी इति ह्रस्वैकारः स्वीकृतः तत्र. अस्तु, तर्हि
अतः आसनं प्राणिः इति चेत् तद् आसनम् एवं चिन्तयेत्, अहं यज्ञदत्तस्य भारं वहामि इति तद् चिन्तयति किल. इयं भारवहनस्य चिन्ता, तद् चिन्ता एव वयम् अधिकरणता अथवा आधारता इति वदामः.
हा, तत्र अधिकरणता आधारता इति पुनः पारिभाषिकशब्दः तत्र. अधिकरणता इति पारिभाषिकशब्दः. तत्र अधिकरणता नाम किं? भारवहनस्य चिन्ता.
वदामः चेत् तद् यज्ञततः आसने उपविशति इति तत्र सप्तमी आगच्छति किल, तदेव अधिकरणम् इति कारणेन
भगिनि. हा, सत्यं. हा, अधिकरणं किम् इति प्रश्नः भवति. समीचीनं, सप्तमीविभक्ति अन्तम् अस्ति इति कृत्वा समीचीनं भगिनि. हा, धन्यवादः, समीचीनम्. अस्तु, अग्रे अन्य कोऽपि अथवा अन्या कापि वक्तुम् इच्छति वा, पठितुम् इच्छति वा?
महोदय, एकः प्रश्नः. इदानीं पूर्वस्मिन् पङ्क्तौ उच्यते द्रव्यम् अधः अस्ति, गुणः उपरि अस्ति, द्रव्यम् आश्रित्य गुणः वर्तते इति. किन्तु पूर्वं यदा द्रव्यस्य लक्षणम् उच्यते, तत्र यस्मिन् वस्तुनि गुणः वर्तते तदेव द्रव्यम् इति, किञ्चित् सैक्लिक् डिपेण्डेन्सि वा अस्ति किल, डेफिनेशन् तादृशम् आसीत् पूर्वम्.
समीचीनप्रश्नः. अग्रे गत्वा लक्षणं पश्यामः. लक्षणं यदि पश्यामः तर्हि वयं ज्ञास्यामः तत्र किं पूर्वं भवति अपि किं परं भवति इति. समीचीनं वा? अस्तु, तत्र अन्य कोऽपि अथवा अन्य कापि वक्तुम् इच्छति वा, पठितुम् इच्छति वा?
प्रश्नं पृच्छामि वा?
हा, प्रश्नं पृच्छतु महोदय.
अत्र अहं यज्ञदत्तस्य भारं वहामि, बोल्ड् अस्ति, किं
केवलं तत्र? अत्र तु हा, अत्र तत्र किं पारिभाषिकशब्दः नास्ति अत्र, सत्यं.
विवरणेन विवरणं कृतं
केवलं तत्र, विवरणं तत्र एतादृशं चिन्तनं तत्र आसनं करोति इति कृत्वा, किन्तु तत् पारिभाषिकशब्दः नास्ति. सत्यं महोदय. अस्तु, तत्र अन्य
एकः प्रश्नः. इदानीं चिन्ता एव अधिकरणता इति उच्यते खलु, तर्हि चिन्ता नाम कः इति?
सत्यं सत्यं. हा, इदानीं तत्र सत्यं, तदपि सम्यक् प्रश्नः एव. केवलं तत्र अस्माकम् अवगमनार्थम् एतद् विवरणं स्वीकृतमस्ति महोदय, तावदेव. तत्र अग्रे गत्वा वयं पश्यामः तत्र अधिकरणता इति, तत्र किम् इति अग्रे पश्यामः. इदानीं तत्र अधिकरणता इति चिन्ता इति स्वीकुर्मः. तत्र नाम यत् किमपि भवतु, तत्र गणितशास्त्रं भवतु, तत्र किमपि तत्र आरम्भे किमपि स्वीकृतं भवति अस्माभिः, नो चेत् तत्र आरम्भमेव न कर्तुं शक्नुमः. तत्र गणितशास्त्रे तत्र ज्योमेट्रि मध्ये तत्र आदौ एक्सियम्स् इति स्थापयामः. तत्र पायिण्ट् इत्युक्ते किम् इति स्थापनीयमस्ति. तत्र प्रश्नः न भवति तत्र पायिण्ट् इत्युक्ते तस्य विषये अन्यत् किमपि डेफिनेशन् ददातु इति न भवति. अतः तत्र कुत्रापि आरम्भः भवेत् अत्र आधार आधेयता इति स्वीकृत्य आरम्भः कृतः अस्ति महोदय. अस्तु, तत्र अन्य कोऽपि अथवा अन्य कापि तत्र पठितुम् इच्छति वा?
अहं पठामि महोदय, अहं शैलजा अस्मि.
शैलजा भगिनी, अस्तु भगिनि, नमस्कारः, पठतु भगिनि.
यज्ञदत्तः चिन्तयति अहं भारं स्थापयामि इति. इयं चिन्ता एव यज्ञदत्ते विद्यमाना आधेयता इत्युच्यते. यज्ञदत्तं विहाय कश्चित् अचेतनः वक्ष्यामाणः संख्यारूपगुणः उपरि भवति चेत् अपि सः गुणोऽहं भारं स्थापयामि इति चिन्तयतीति आलोचयामः. अतः तादृशे पदार्थे अर्थेयता भवति, अधेयता, आधेयता, आधेयता भवति. तथा आसने अधिकरणता वर्तते.
हा, तावत्पर्यन्तं तावत्पर्यन्तं. हा, तत्र किम् उक्तं?
यज्ञदत्तः चिन्तयति अहं भारं स्थापयामि इति. अहं भारं स्थापयामि, अहं भारं स्थापयामि चिन्तनम्
इति चिन्तनं
दृश्ये चित्रे
चित्रे अस्ति. सत्यं, समीचीनम्.
इयं चिन्ता एव यज्ञदत्ते विद्यमाना आधेयता इत्युच्यते.
तत्र आधेयता नाम किं? यज्ञदत्ते या चिन्ता अस्ति, तत्र अहं भारं स्थापयामि इति चिन्ता या अस्ति, सा एव आधेयता इति उच्यते.
यज्ञदत्तं विहाय कश्चित् अचेतनः वक्षमाणः संख्यारूपगुणः
उपरि भवति चेत्, नाम तत्र इदानीं यज्ञदत्तः आसन्दस्य उपरि अस्ति, यज्ञदत्तः आसन्दे अस्ति, अग्रे वक्ष्यमाणः नाम अग्रे तस्मिन् विषये वदामः. किं वदामः? संख्यारूपगुणः, संख्यारूपसङ्ख्या इति गुणः. तत्र सङ्ख्या कः गुणः इति अग्रे वयं वदामः, किन्तु गुणः सङ्ख्या अथवा अन्य कोऽपि गुणः उपरि भवति. कस्मिन् द्रव्ये कस्मिंश्चित् द्रव्ये भवति तस्मिन् समये तत्र गुणः अचेतनः, तत्र तस्मिन् तत्र प्राणः नास्ति खलु, तत्र अचेतनः अस्ति, वस्तुः अस्ति, तत्र अत्र पदार्थः अस्ति, किन्तु तदपि तस्यापि चिन्तनं भवति इति वयं कल्पयामः. गुणः अपि चिन्तनं करोति. किं करोति चिन्तनं? तत्र गुणोऽहम्, अहं गुणः, अहं भारं द्रव्ये स्थापयामि इति चिन्तनं करोति इति वयम् आलोचयामः. केवलं तत्र उदाहरणेन वयं तत्र गुणः भारं स्थापयति द्रव्यस्य उपरि, अतः गुणे किं भवति? यद्भवति तदेव गुणे भवति. यज्ञदत्ते किं भवति? आधेयता. हा, यज्ञदत्तः गुणः इव आसनं द्रव्यमिव इति चिन्तनम्. यज्ञदत्ते आधेयता अस्ति, अतः गुणे अपि आधेयता अस्ति. आसने अधिकरणा वर्तते, तथैव द्रव्ये अपि अधिकरणता वर्तते इति. अस्तु, समीचीनं, धन्यवादः भगिनि. अत्र हा इदानीं तत्र समयः अपि जातः, तत्र कोऽपि प्रश्नः अस्ति वा एतावत् पर्यन्तम्?
एक एक वाट्सप् ग्रूप् रचयत् चेत् बहु सम्यक् अस्ति. कोऽपि कोऽपि
स्थापितुं च इच्छन्ति इच्छति चेत्
मया नम्बर् प्रेषति प्रेषितवती. कोऽपि अर्च करोति चेत् बहु सम्यक्.
अस्तु अस्तु अस्तु, तत्र हा पुष्पभगिनी स्थापिता, तत्र भवती स्था तत्र अहं पश्यामि, तत्र सङ्ख्या स्थापिता अस्ति. अस्तु अस्तु, तत्र
कोऽपि
अस्तु
टेलिग्राम्, ऐ डोण्ट् यूस् टेलिग्राम् भगिनि.
अस्तु, अतः तत्र चर्चयन्तु, तत्र किं करणीयं कथं करणीयम् इति चिन्तयन्तु. अस्तु, अतः तत्र वर्गस्य विषये अन्य कोऽपि प्रश्नः अस्ति वा?
आचार्याः, अत्र एकः प्रश्नः एवमस्ति, स्वरूपमहोदयेन एकः करपत्रं प्रेषितम् अष्टादशदिनाङ्के, तत् करपत्रमेव अत्र पठ्यते अथवा कोऽपि विशेषपुस्तकम् अत्र पठ्यते?
महोदय, समीचीनप्रश्नः. पुस्तकस्य अध्ययनं पुनः सुलभं भवतु इति तत्र स्वरूपमहोदय करपत्रं रचितवान. वयं करपत्रमपि पठामः महोदय. तत्र मध्ये मध्ये पुस्तकस्य अध्ययनं कुर्मः, मध्ये मध्ये करपत्रं, तत्र विषयः यदा गम्भीरः भवति गभीरः भवति तस्मिन् समये करपत्रं पठामः, अवगमनं भवति, तदनन्तरं पुनः पुस्तकं पुनः आगच्छामि.
पुस्तकस्य नाम किं?
विद्याधरी. विद्याधरी
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 धन्यवादः.
धन्यवादः. अस्तु
महोदय, किमर्थं संख्यारूपगुणः इति दत्तमस्ति?
केवलं तत्र संख्या इति गुणः, तत्र उदाहरणार्थं संख्या इति स्वीकृतमस्ति गुणः, तावदेव.
पूर्वं गुणस्य आवलिः यत्र दत्तमस्ति तत्रापि कालः, दिक्, अनन्तरं मनः उपरि तस्य लक्षणं संख्या इति दत्तमस्ति.
लक्षणं लक्षणं नास्ति, केवलं तत्र मनसि संख्या इति गुणः वर्तते इति एव तत्र प्रदर्शितं, तावदेव.
तत् त्रयमपि समानं वा? संख्या इति
संख्या इति गुणः तत्र काले वर्तते, दिक्षु वर्तते, अपि अपि दिशि वर्तते, अपि मनसि अपि भवति इति, तावदेव. लक्षणं तदेव तदेव संख्या इति, सत्यं भगिनि, हा सत्यम्.
अत्र संख्या नाम किम्? एक एव देवदत्त अत्र, न तु द्वे वा, न तु त्रीणि, अथवा भार एव संख्या तदेव निर्दिश्यते संख्याशब्देन?
न न, इदानीं केवलं संख्या इति एकः गुणः अस्ति, तत्र गुणस्य लक्षणम् अग्रे पश्यामः. तत्र एकत्वम् इति संख्या भवितुमर्हति, द्वित्वमपि संख्या भवितुमर्हति, तत्र लक्षणं किम् इति अग्रे पश्यामः. किन्तु संख्या इति गुणः कुत्र वर्तते इति तत्र उदाहरणरूपेण तत्र दत्तमस्ति, तावदेव. लक्षणम् इति नास्ति तत्र, संख्या इति मनसः लक्षणं नास्ति, केवलम् उदाहरणरूपेण तत्र संख्या स्वीकृता अस्ति, तावदेव.
ओ, शैत्यरूपगुणः इत्यपि वक्तुं शक्यते किल?
हा सत्यं सत्यं सत्यं, हा सत्यं भगिनि, हा. अतः तत्र अग्रे गत्वा तत्र पश्यामः, तत्र अनेके गुणाः सन्ति, तत्र गन्धः, स्पर्शः वा, तत्र किमपि स्वीकृत्य, यः कोऽपि गुणं स्वीकृत्य, यं किमपि गुणं स्वीकृत्य तत्र उदाहरणं रूपेण तत्र स्थापितुं शक्नुमः.
अस्तु जि, धन्यवादः.
अस्तु, धन्यवादः. अस्तु, तर्हि तत्र यदि प्रश्नः न कोऽपि प्रश्नः नास्ति चेत् अत्र एव विरमाम, अग्रिमे वर्गे मिलामः. अपि तत्र करपत्रस्य अपि तत्र अध्ययनं वयं कुर्मः मध्ये मध्ये, तत्र विंशति अधिकं न प्रायशः त्रिंशताधिकं करपत्राणि सन्ति. स्वरूपमहोदय तत्र करपत्राणि लिखितवान्, बहु सम्यक् अस्ति. अत्र तत्र करपत्रस्य अध्ययनमपि कुर्मः, तेन अपि पुस्तकस्य अध्ययनेन न्यायशास्त्रस्य अवगमनं भवेत् इति अस्माकम् आशा. अस्तु तर्हि विरमामः
महोदय, बहु सम्यक् अस्ति.
सर्वेभ्यो नमः, सर्वेषां